इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिझाः। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य स्वाधिकारिक यात्रार्थं जापानदेशं प्रति एष्यति। श्रीमोदी मासस्यास्य ऊनत्रिंशत् अथ त्रिंशत् दिनांकयोः जापानदेशैव भविष्यति, यत्र सः जापानदेशस्य प्रधानमन्त्रिणा शिगेरु इशिबा इत्यनेन सह पञ्चदशतमे भारत जापान वार्षिक शिखर सम्मेलने भागं गृह्णाति। नवदिल्ल्यां विदेश सचिवः अवोचत् यत् वार्षिक शिखर सम्मेलनेन उभय प्रधानमन्त्रिभ्यः द्वैपाक्षिक सम्बन्धस्य गहन समीक्षां कर्तुं प्रगत्याः समीक्षां विधातुं च अवसरः प्राप्स्यते इति। तौ क्षेत्रीय वैश्विक महत्वस्य विषयेषु अपि विचारं करिष्यतः। जापानदेशस्य यात्रायाः अनन्तरं प्रधानमन्त्री अस्य मासस्य एकत्रिंशत् दिनांके, अग्रिम मासस्य एकदिनांके च चीन देशस्य टियांटिंग नगरं प्रति एष्यति। प्रधानमन्त्री जनधन योजनायाः अद्य एकादश वर्षाणि पूर्णानि। एषा योजना विश्वस्य बृहत्तमेषु वित्तीय समावेशन प्रयत्नेषु अन्यतमा अस्ति, यस्याः घोषणा प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना चतुर्विंशत्युत्तर द्विसहस्रतम वर्षस्य अगस्त मासस्य पञ्चदश दिनांके रक्तदुर्गात् विहिता। एषा योजना प्रत्येकस्य गृहस्य कृते न्यूनातिन्यूनम् एकस्य वित्तकोषस्य सुविधा, वित्तीय साक्षरता, ऋणस्य निवृत्तिवेतनस्य च सुविधां प्रापयितुम् एकः मञ्चः प्रयच्छति। केन्द्रीय मन्त्रिमण्डलेन प्रधानमन्त्री पथ विक्रेता आत्मनिर्भर निधि योजनायाः पुनर्गठनम् अनुमोदितम्। मन्त्रिमण्डलेन अस्याः योजनायाः ऋणावधिः चतुर्विंशत्यधिक द्विसहस्रतमस्य दिसम्बर मासस्य एकत्रिंशत् दिनांकात् त्रिंशदधिक द्विसहस्रतमस्य मार्च मासस्य एकत्रिंशत् दिनांकं यावत् समेधितुम् अनुमतिः प्रकटिता। योजनायाः अस्याः आहत्य परिव्ययः द्वात्रिंशदधिक त्रिशतोत्तर सप्तसहस्रकोटि रूप्यात्मकः वर्तते। देशे सम्पर्क व्यवस्थां, सामग्रीवहनं, क्षेत्रीय विकासं च वर्धयितुम् आर्थिक विषयस्य कैबिनेट समित्या प्रायः अष्टविंशत्युत्तर त्रिशताधिक द्वादश सहस्रकोटि रूप्यकाणां चतुर्णां प्रमुख रेल मार्ग परियोजनानां स्वीकृतिः प्रकल्पिता। गुजरात राज्यस्य कच्छ प्रदेशस्य दूरस्थ क्षेत्राणां सम्पर्कं साधयितुम् एकः प्रत्यग्रह रेलमार्गः, त्रिसहस्राधिक ग्राम सम्पर्काणां वर्धनं च एतासु परियोजनासु अन्तर्भवति, येन कर्नाटक, तेलंगाना, बिहार, असम इत्यादीनां राज्यानां कृते लाभः भविष्यति। जम्मू कश्मीरस्थ कटरा नगरस्य वैष्णोदेवी मार्गे प्रचण्ड वृष्ट्या दुरापन्नेन भूस्खलनेन नैके जनाः अपमृत्युम् अवाप्नुवन्। सुरक्षा प्रवर्तकैः व्रणिताः कटरायाः सामुदायिक स्वास्थ्य केन्द्रे प्रापिताः। सुरक्षाबलेन मार्गे बद्धेभ्यः तीर्थयात्रिभ्यः अपि आवश्यक चिकित्सोपकरणानि प्रापितानि। केन्द्रीय मन्त्री डॉ जितेन्द्र सिंहः अवोचत् यत् जम्मू नगरे तवी नद्याः जलस्तरः न्यूनो जातः, किन्तु चिनाब नदी साम्प्रतमपि विपत्ति चिह्नस्य समीपे प्रवहति। एकस्मिन् जनसंचार पटले असौ प्रावोचत् यत् SDRF, NDRF, अर्धसैनिक बलानि, स्थलीय सैन्य बलानि, वायुदल सैनिकाश्च नागरिक प्रशासनेन सह रक्षाभियाने प्रवृत्तास्सन्ति। पंजाबे अपि जलाप्लावस्य स्थितिः गुरुतरावस्थां प्राप्नोति। रावी व्यास सतलुज नदीनां प्रवाहः तीव्रतरो जातः, येन विपद्ग्रस्तेभ्यः जनपदेभ्यः सञ्चेतना निस्सारिता। बैडमिंटन क्रीडायां भारतस्य प्रमुखः पुरुषयुगलः सात्विक साईराज, रंकी रेड्डी, चिराग शेट्टी इत्येतौ विश्व चैम्पियनशिप क्रीडायां प्रविष्टवन्तः। इति वार्ताः।